मञ्जीरक्वनितैः क्षिबन्निव मुहुः श्रीमन्नकांशुद्गमैः दैत्येन्द्रम् प्रहसन्निव रुणरुचाम् रुष्यन्निवास्मै वृषम् तीरायाम् त्वयि निर्विकारमनसि त्वत्पाद एव स्फुटम् पुष्णन्वैरिविकारमेष महिषत् वंसि परिद्रायताम् क्षिप्रम् देवि शिरस्बन्धने महिषम् दृष्ट्वा ततोतः पदम् दित्सन्ध्याम् त्वयि कण्ठपञ्चनभिया कण्ठीरवे विधृते मेतिन्यामपि भीतिकम्बिततनौ प्रेमत्वराशालिना सर्वेणैव निजाङ्गसीम्नि निहितम् पादत्वयं ते जयेत्।